पुष्पं प्रवालोपहितं यदि स्यात् मुक्ताफलं वा स्फुटविद्रुमस्थं ततोऽनुकुर्यात् विशदस्य तस्याः ताम्रौष्ठपर्यस्तरुचस्मितस्य।
पुष्पमिति पुष्पं पुण्डरीकादिकं प्रवालोपहितं प्रवाले बालपल्लवे उपहितं निहितं स्याद् यदि प्रवालो वल्लकीदण्डे विद्रुमे बालपल्लवे इति विश्वः मुक्ताफलं वा स्फुटे निर्मले विद्रुमे तिष्ठतीति स्फुटविद्रुमस्थं स्याद्यदि ततः तर्हि विशदस्य शुभ्रस्य ताम्रौष्ठपर्यस्तरुचः ताम्रे अरुणे ओष्ठे पर्यस्ता प्रसृता रुक्कान्तिः यस्य तथोक्तस्य तस्याः पार्वत्याः स्मितस्य अनुकुर्यात्। स्मितं अनुकुर्यादित्यर्थः अत्र माषाणाम् अश्नीयात् इतिवत् सम्बन्धमात्रविवक्षया षष्ठी। अत्र पुष्पप्रवालयोः मुक्ताविद्रुमयोश्च असम्बन्धेऽपि सम्बन्धोक्त्या अतिशयोक्तिः सा च सम्भावना इत्यलङ्कारसर्वस्वकारः। विशेषतस्तु पुष्पमुक्ताफलयोः उपमानयोः प्रकृतोत्कर्षार्थम् उपमेयताकल्पनात् प्रतीपालङ्कारः। तदुक्तम् उपमानस्याक्षेपः उपमेयताकल्पनम् वा प्रतीपः इति स च पूर्वोक्तातिशयोक्त्यनुप्राणित इति।
स्वरेण तस्याम् अमृतश्रुतेव प्रजल्पितायाम् अभिजातवाची अप्यन्यपुष्टा प्रतिकूलशब्दा श्रोतुर्वितन्त्रीरिव ताड्यमाना।
स्वरेणेति अभिजातवाचि मधुरभाषिण्याम् तस्याम् पार्वत्याम् अमृतश्रुता अमृतस्राविणा इव क्विप् स्वरेण नादेन प्रजल्पितायाम् आलपन्त्याम् कर्तरि तः अन्यैः काकादिभिः पुष्टा अन्यपुष्टा कोकिला अपि मुख्यया वृत्त्या जातिवचनत्वाभावात् ङीबभावः ताड्यमाना वाद्यमाना विषमबद्धा तन्त्रीः वितन्त्रीः इव अवितृस्त्रूतन्त्रिभ्य ईः इति तन्त्रीधातोः औणादिक ईप्रत्ययः। ङीबभावात् हलिङ्याभ्यः इति न सुलोपः। तदुक्तम् अवी लक्ष्मी तरी तन्त्री ह्रीधी स्त्रीणाम् उणादितः स्त्रीलिङ्गानाम् अमीषाम् तु न सुलोपः कदाचन इति। एते ङीवन्ताः न भवन्तीत्यर्थः। श्रोतुः जनस्य प्रतिकूलशब्दाः कर्णकठोरनादाः भवन्तीति शेषः।
प्रवातनीलोत्पलनिर्विशेषम् अधीरविप्रेक्षितमायताक्ष्या तया गृहीतम् नु मृगाङ्गनाभ्यः ततो गृहीतम् नु मृगाङ्गनाभिः।
प्रवातेति प्रवातनीलोत्पलनिर्विशेषम् प्रवाते प्रभूतवादस्थले यन्नीलोत्पलम् ततो निर्विशेषम् निर्भेदम् तत्सदृशमित्यर्थः। अधीरविप्रेक्षितम् चकितविलोकितम् आयताक्ष्या विशालनेत्रया तया पार्वत्या मृगाङ्गनाभ्यः हरिणीभ्यः गृहीतम् अभ्यस्तम् नु अथवा మృగాంగనాభిః తతః తస్యాః పార్వత్యాః పంచమ్యాస్తసిల్ గృహీతం ను. అత్ర వివక్షితస్య పరస్పర గ్రహణస్య ఉత్ప్రేక్షణాత్ ఉత్ప్రేక్షేతి కేచిత్ తదుపజీవి సందేహాలంకార ఇత్యన్యే ఉభయోః సంకర ఇత్యపరే.
తస్యా శలాకాంజన నిర్మితేవ కాంతిర్భ్రువోరాయతలేఖయోర్యా తాం వీక్ష్య లీలాచతురామనంగః స్వచాప సౌందర్యమదం ముమోచ.
తస్యా ఇతి ఆయతలేఖయోః దీర్ఘరేఖయోః తస్యాః పార్వత్యాః భ్రువోః సంబంధిని శలాకాంజన నిర్మిత శలాకయా అంజనేన నిర్మిత ఇవ స్థిత యా కాంతిః లీలాచతురాం విలాససుభగాం తాం కాంతిం వీక్ష్య అనంగః స్వచాపసౌందర్యమదం స్వచాపసౌందర్యేణ యో మదః తం ముమోచ. ఇహ సౌందర్యాతిశయోక్తిః.
లజ్జాతిరశ్చాం యది చేతసి స్యాత్ అసంశయం పర్వతరాజపుత్ర్యాః తం కేశపాశం ప్రసమీక్ష్య కుర్యుః బాలప్రియత్వం శిథిలం చ మర్యః.
లజ్జేతి తిరశ్చాం తిర్యగ్జాతీనాం చేతసి లజ్జా స్యాద్యది సంశయాభావః అసంశయం సందేహో నాస్తిత్యర్థః. పర్వతరాజపుత్ర్యాః శాంగనవాద్యయో ngīn ఇతి ngīn తం ప్రసిద్ధం కేశపాశం కేశకలాపం పాశః పక్షశ్చ హస్తశ్చ కలాపార్థాః కచాత్పరే ఇత్యమరః. ప్రసమీక్ష్య దృష్ట్వా చమర్యః మృగీ విశేషాః వాలాః ప్రియాః యాసామితి విగ్రహే వాలప్రియాః తాసాం భావః వాలప్రియత్వం ప్రియవాలత్వమిత్యర్థః. ఆహితాగ్న్యాది పాఠాద్వా పరనిపాతః త్వతలోర్గుణవచనస్య ఇతి పుంవద్భావః. శిథిలం కుర్యుః నిర్లజ్జత్వాత్ న శిథిలయంతీత్యర్థః. అతయేవాత్ర నిర్లజ్జత్వకరణహేతోః ఆద్యపాదే వాక్యార్థత్వేనోక్త్యా కావ్యలింగాఖ్యాలంకారః. తదుక్తం హేతోర్వాక్యపదార్థత్వే కావ్యలింగముదాహృతం ఇతి.
సర్వోపమాద్రవ్యసముచ్చయేన యథా ప్రదేశం వినివేశితేన సా నిర్మితా విశ్వసృజా ప్రయత్నాత్ ఏకస్థ సౌందర్య దిదృక్షయేవ.
సర్వోపమేతి కిం బహునా సా పార్వతీ విశ్వసృజా విధాత్రా ఏకస్థ సౌందర్య దిదృక్షయా ఏకత్ర తిష్ఠతీతి ఏకస్థం తస్య సౌందర్యస్య సర్వవస్తుగతస్యేత్యర్థః. దిదృక్షయా ఇవ ప్రయత్నాత్ యథాప్రదేశం క్రమాత్ వినివేశితేన స్థాపితేన సర్వోపమాద్రవ్యసముచ్చయేన సర్వేషాం ఉపమాద్రవ్యాణాం చంద్రారవిందాద్యుపమాన వస్తూనాం సముచ్చయేన సమాహారేణ నిర్మిత. దిదృక్షయేవేతి ఫలోత్ప్రేక్ష దర్శనార్థిత్వాత్ విశ్వసృజః ఇతి.
తాం నారదః కామచరః కదాచిత్ కన్యాం కిల ప్రేక్ష్య పితుః సమీపే సమాదిదేశైకవధూం భవిత్రీం प्रेम्णा शरीरार्धहराम हरस्य
तामिति कामेन इच्छया चरतीति कामचरः नारदः कदाचित् पितुः हिमवतः समीपे कन्याम् ताम् पार्वतीम् प्रेक्ष्य किल प्रेम्णा न त्वन्यथा हरस्य शिवस्य अर्धम् हरतीत्यर्धहरा हरतेः अनुद्यमनेच् इति अच्प्रत्ययः शरीरस्य अर्धहराम् शरीरार्धहराम् कुलधुरन्धरादिवत् अवयवद्वारा समुदाय विशेषकत्वात् समासः अन्यथा तु अर्धस्य समप्रविभागवचनत्वात् अर्धशरीरेति स्यात् एकवधूम् असपत्नीकाम् भार्याम् पूर्वकाल इत्यादिना समासः भवित्रीम् भाविनीम् समादिदेश हरस्य अर्धाङ्गहारिणी एकपत्नी भविष्यतीति आदिष्टवानित्यर्थः
गुरुः प्रगल्भेऽपि वयस्यतोऽस्याः तस्थौ निवृत्तान्यवराभिलाषः ऋते कृशानोर्न हि मन्त्रपूतम् अर्हन्ति तेजांस्यपराणि हव्यम्
गुरुरिति गुरुः पिता गुरु गीष्पतिपित्राद्यौ इत्यमरः अतः नारदवचनाद्धेतोः अस्याः पार्वत्याः प्रगल्भे वयसि अपि यौवने सत्यपि निवृत्तः अन्यस्मिन् वरे जामातरि अभिलाषो यस्य सः तथोक्तः सन् वरो न रूपजामात्रोः इति वैजयन्ति तस्थौ वरान्तरम् नान्विष्टवानित्यर्थः ननु कुतः असौ निर्बन्धः इत्यत आह ऋते इति तथा हि मन्त्रपूतम् मन्त्रैः पूतम् संस्कृतम् हूयत इति हव्यम् आज्यादिकम् कृशानोः पावकात् ऋते कृशानुम् विना अन्यारादितर इत्यादिना पञ्चमी अपराणि तेजांसि सुवर्णादीनि न अर्हन्ति न भजन्तीत्यर्थः ईश्वरात् अन्यस्य तद्योग्यस्याभावात् तर्हि तमेव आहूय दीयतामित्याशङ्क्य आह
अयाचितारम् न हि देवदेवम् अदृस्सुताम् ग्राहयितुम् शशाक अभ्यर्थनाभङ्गभयेन साधुः माध्यस्थ्यमिष्टेऽप्यवलम्बतेऽर्थे
अयाचितारमिति अद्रिः हिमवान् अयाचितारम् अयाचमानम् देवदेवम् महादेवम् सुताम् पार्वतीम् ग्राहयितुम् स्वयम् आहूय परिग्राहयितुम् न शशाक नोत्सेहे ग्रहे द्विकर्मकत्वम् तथा हि साधुः सज्जनः साधुर्वार्धुषिके चारौ सज्जने चाभिधेयवत् इति विश्वः अभ्यर्थनाभङ्गभयेन याच्नावैफल्यभीत्या इष्टे अपि अर्थे विषये माध्यस्थ्यम् औदासीन्यम् अवलम्बते न च तथैव स्थितः किन्तु उपायान्तरम् चिन्तितवानिति वक्तुम् प्रस्तौति
यदैव पूर्वे जनने शरीरम् सा दक्षरोषात् सुदती ससर्ज तदा प्रभृत्येव विमुक्तसङ्गः पतिः पशूनाम् अपरिग्रहो भूत्।
यदेति शोभनाः दन्ताः यस्याः सा सुदती। वयसि दन्तस्य दत्तृ इति दत्रादेशः, उगितश्च इति ङीप्। सा पार्वती पूर्वे जनने पूर्वस्मिन् जन्मनि, पूर्वादिभ्यो नवभ्यो वा इति स्मिन्नादेशविकल्पः। पूर्वं ज्वलने इति पाठे पूर्वं दाक्षायणीत्वे ज्वलने योगाग्नौ, यदा यस्मिन् काले दक्षरोषात् शरीरं देहं ससर्ज तत्याज, तदा प्रभृत्येव तदाद्येव यथा तथा पशूनां पतिः शिवः विमुक्तसङ्गः त्यक्तविषयासङ्गः सन् अपरिग्रहः अपत्नीकः अभूत्। स्त्र्यन्तरं न परिजग्राहेत्यर्थः। पत्नीपरिजनादानमूलशापाः परिग्रहाः इत्यमरः।